सञ्जीवनस्तोत्रं वसिष्ठकृतं
देवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरं मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा सारात् सारतरं पुण्यं गुह्यात् गुह्यतरं शुभम् महादेवस्य कवचं मृतसञ्जीवनामकं समाहितमना भूत्वा शृणुष्व कवचं शुभम् श्रुत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा वराभयकरो यज्वा सर्वदेव निषेवितः मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा दधानशक्तिमभयां त्रिमुखं षड्भुज प्रभुः सदाशिवोऽग्निरूपी मां आज्ञेयां पातु सर्वदा अष्टादशभुजोपेतो दण्डाभयकरो विभुः यमरूपी महादेवो दक्षिणस्यां सदावतु खड्गाभयकरो धीरो रक्षो गणनिषेवितः रक्षो रूपी महेशो मां नैऋत्यां सर्वदावतु पाशाभयभुजः सर्व रत्नाकरनिषेवितः वरुणात्मा महादेवः पश्चिमे मां सदावतु गदाभयकर प्राण नायकः सर्वदा गतिः वायव्या मारुतात्मा मां शङ्करः पातु सर्वदा शङ्काभयकरस्थो मां नायकः परमेश्वरः सर्वात्मानदिग्भागे पातु मां शङ्करः प्रभुः शूलाभयकरः सर्व विद्यानामधिनायकः ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ऊर्ध्वभागे ब्रह्मरूपी विश्वात्माधः सदावतु शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः भ्रूमध्यं सर्वलोकेशः त्रिनेत्रो लोचने वतु भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः जिह्वां मे दक्षिणामूर्तिः दन्तान् मे गिरिशोभतु मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषणः पिनाकी मत्करौ पातु त्रिशूली हृदयं मम पञ्चवक्त्रस्तनौ पातु उदरं जगदीश्वरः नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः कटद्वयं गिरीशो मे पृष्ठं मे प्रमथाधिपः गुह्यं महेश्वरः पातु ममोरूपातु भैरवः जानुनी मे जगद्धर्ता जङ्घे मे जगदम्बिका पादौ मे सततं पातु लोकवन्द्यः सदाशिवः गिरिशः पातु मे भार्यां भवः पातु सुतान् मम मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितं सहस्रावर्तनं चास्य पुरश्चरणमीरितं यः पठे शृणुयान्नित्यं श्रावयेषु समाहितः सकालमृत्युं निर्जित्य सदायुष्यं समश्नुते
हस्तेन वा यदा सृष्ट्वा मृतं सञ्जीवयत्यसौ आधयो व्याधयस्तस्य न भवन्ति कदाचन कालमृत्युमपि प्राप्तम् असौ जयति सर्वदा अणिमादिगुणैश्वर्यम् लभते मानवोत्तमः युद्धारम्भे पठित्वेदम् अष्टाविंशतिवारकम् युद्धमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते न ब्रह्मादीनि शास्त्राणि क्षयम् कुर्वन्ति तस्य वै विजयम् लभते देव युद्धमध्येऽपि सर्वदा प्रातरुत्थाय सततम् यः पठेत् कवचम् शुभम् अक्षय्यम् लभते सौख्यम् इह लोके परत्र च सर्वव्याधिविनिर्मुक्तः सर्वरोगविवर्जितः अजरामरणो भूत्वा सदा षोडशवार्षिकः विचरत्यखिलान् लोकान् प्राप्य भोगांश्च दुर्लभान् तस्मादिदम् महागोप्यम् कवचम् समुदाहृतम् मृतसञ्जीवनम् नाम्ना दैवतैरपि दुर्लभम्।